सर्वेषां पाणिनिव्याकरणवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं क्रियते, पश्चात् पाठः आरभ्यते। भगिनी एकवारं स्मरयतु।
ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन दौदागिरपुंसं विमलैशब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः।
अस्माकं पाठस्य शीर्षकमस्ति सार्वधातुकलकाराः आर्धधातुकलकाराः च। सारांशत्वेन गते वर्गे किं पठितं तस्मिन् प्रसङ्गे पीठिकारूपेण कांश्चन विषयान् स्मारयामि। संस्कृतभाषायाम् उपद्विसहस्रं धातवः सन्ति। ते सर्वे धातवः दशसु गणेषु विभक्ताः। ते दश धातुगणाः गणद्वये विभक्ताः। केन आधारेण? अङ्गम् अदन्तमस्ति वा अनदन्तमस्ति वा इत्यस्य आधारेण एते दश धातुगणाः गणद्वये विभक्ताः। यस्मिन् गणे अङ्गम् अदन्तमस्ति तस्मिन् गणे सिद्धतिङ् प्रत्ययाः भिन्नाः, अथवा येषु गणेषु अङ्गम् अदन्तमस्ति तेषु गणेषु सिद्धतिङ् प्रत्ययाः समानाः। यस्मिन् गणे अङ्गम् अनदन्तमस्ति तस्मिन् सिद्धतिङ् प्रत्ययाः भिन्नाः, अथवा येषु गणेषु अङ्गम् अनदन्तमस्ति तेषु सिद्धतिङ् प्रत्ययाः समानाः। भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे एतेषु चतुर्षु गणेषु अङ्गमदन्तमस्ति, अन्येषु षट्सु गणेषु अङ्गम् अनदन्तमस्ति। क्रियापदस्य निर्माणसमये धातोः अनन्तरं यः आयति स एव प्रत्ययः। भिन्नरीत्या वदामि, प्रत्ययात् पूर्वं यावान् भागः अस्ति, यावत् सर्वम् अस्ति, तत् सर्वम् अङ्गम् इति वदामः। प्रत्ययानां विधानं कुत्र भवति इत्युक्ते तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये, अष्टाध्यायी ग्रन्थस्य तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये प्रत्ययाधिकारः अस्ति। प्रत्ययाधिकारः त्रिषु अध्यायेषु अस्ति, किन्तु अतृतीयाध्याये इत्युक्ते सम्पूर्णतृतीयाध्यायपर्यन्तं प्रत्ययाधिकारः अस्ति, किन्तु तत्र धातोः इत्यस्य अधिकारः अपि अस्ति। इत्युक्ते आतृतीयाध्याये धातुतः प्रत्ययाः विधीयन्ते, चतुर्थाध्याये प्रातिपदिकात् प्रत्ययाः विधीयन्ते। तत्र त्रीणि अधिकारसूत्राणि सन्ति, प्रत्ययः इति एकम् अधिकारसूत्रं, धातोः इति अन्यत् अधिकारसूत्रं। प्रत्ययाधिकारः त्रिषु अध्यायेषु अस्ति, धातोः इत्यस्य अधिकारः तृतीयाध्याये आतृतीयाध्यायपर्यन्तम् अस्ति। परः इति अधिकारसूत्रस्य अधिकारेण किमुच्यते त्रिषु अध्यायेषु? प्रत्ययः प्रकृतेः परम् एव आयाति। क्रियापदस्य निर्माणसमये धातुः प्रकृतिः, नामपदस्य निर्माणप्रसङ्गे प्रातिपदिकं प्रकृतिः भवति। लकाराः इति वदामः खलु, लट् लकारः इत्यस्मिन् प्रसङ्गे वर्तमाने लट् इति एकं सूत्रमस्ति, तेन सूत्रेण लट् लकारप्रत्ययः विहितः भवति। संस्कृतभाषायां दशलकाराः सन्ति, लकारप्रत्ययाः भिन्नाः, तिङ्प्रत्ययाः भिन्नाः, भवन्तः जानन्ति इति अहं चिन्तयामि। तिङ्प्रत्ययाः अष्टादश तिङ्प्रत्ययाः सन्ति, तिबादयः, ते भिन्नाः, दशलकारप्रत्ययाः भिन्नाः। वयं साधारणतया किं कुर्मः, धातुं स्वीकुर्मः, धातुतः अस्माकं विवक्षानुगुणं लकारप्रत्ययं योजयामः। इत्युक्ते कीदृशं तिङन्तपदं वयं साधयितुमिच्छामः इत्यस्य आधारेण लकारमपि स्वीकुर्मः। लकारः इति किमर्थं वदामः, लट् स्वीकुर्मः चेत् ठकारस्य इति संज्ञा भवति, अकारः उच्चारणार्थः, ला एव अवशिष्यते, तस्य नाम एव लकारः। लकारस्य स्थाने लस्य इति सूत्रेण विवक्षानुगुणं तिबादयः आयान्ति। तिङन्तपदरूपसाधनवेलायाम् अथवा कृदन्तरूपसाधनवेलायां प्रक्रियाकाले सर्वाणि कार्याणि सोपानेन भवन्ति, सोपानानि सन्ति तत्र, सोपानेषु सर्वाणि कार्याणि भवन्ति। तिङन्तपदस्य रूपसाधनवेलायाम् अपि च कृदन्तरूपसाधनवेलायां सोपानेषु कार्याणि भवन्ति. कस्मिन् स्तरे कः प्रत्ययः आयाति इति स्पष्टतया ज्ञातव्यम्. तत्र धातुतः प्रत्ययं योजयामः योजनवेलायां प्रक्रिया कीदृशी अस्ति इति अस्माकं मनसि भवेत्. प्रक्रिया कीदृशी अस्ति इत्युक्ते प्रक्रिया सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति अस्माभिः ज्ञातव्यम्. इत्युक्ते तयोर्मध्ये महान् भेदः अस्ति. प्रक्रिया सार्वधातुकी चेत् भिन्नकार्याणि भवन्ति, प्रक्रिया आर्धधातुकी चेत् अन्यानि कार्याणि भवन्ति. सार्वधातुकतिङन्तप्रक्रिया वा सार्वधातुककृदन्तप्रक्रिया वा नो चेत् आर्धधातुकतिङन्तप्रक्रिया वा आर्धधातुककृदन्तप्रक्रिया वा चतस्रः प्रक्रियाः सन्ति. भिन्नरीत्या वदामि, प्रक्रिया सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया वा इति अस्माकं मनसि स्पष्टता भवेत्. धातुतः प्रत्ययस्य योजनं द्विधा भवितुमर्हति, प्रक्रिया द्विधा भवितुमर्हति, सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया. सार्वधातुकप्रक्रिया अस्ति चेत् तदा धातुतिङ्प्रत्ययोः मध्ये गणविकरणप्रत्ययः आयाति. आर्धधातुकप्रक्रिया अस्ति चेत् धातुतिङ्प्रत्ययोः मध्ये गणविकरणप्रत्ययः न आयाति, किन्तु लकारनिमित्तिकविकरणप्रत्ययः आयाति आर्धधातुकप्रक्रियायाम्. आर्धधातुकप्रक्रियायां गणविकरणप्रत्ययस्य चिन्तनं नास्ति, किन्तु इडागमचिन्तनम् अवश्यं भवति. एतत् सर्वं मनसि स्थायिरूपेण भवेत् अथवा अस्माकं मनसि स्पष्टता आदौ एव भवेत्. प्रक्रिया सार्वधातुक वा आर्धधातुकः वा इति, अपि च यस्मात् प्रत्ययः विधीयते तदेव अङ्गम्. अङ्गसंज्ञासूत्रमस्ति, यस्मात् प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम् भवति इति. रूपसाधनवेलायां भू इति धातुः शप् प्रत्ययस्य कृते अङ्गं भवति, तिप्रत्ययस्य कृते भव इति अङ्गं भवति. भव इति अङ्गम् अदन्तमस्ति. भव इत्यत्र अन्तिमवर्णः ह्रस्व अकारः अस्ति इति कृत्वा भव इति अदन्तमङ्गमस्ति. चतुर्षु गणेषु अदन्तमङ्गं सिद्ध्यति. तदर्थमेव भुवादिगणः प्रथमगणसमूहे अस्ति. अन्यवार्ता का? निमित्तमस्ति चेदेव कार्यं भवति. तत्र कार्यकारणसम्बन्धः अस्ति. यावत्पर्यन्तं कारणं नास्ति तावत्पर्यन्तं तत्र कार्यं न भवति. एवमेव अत्रापि निमित्तमस्ति चेदेव कार्यं भवति. भवति इत्यत्र धातुः भू अस्ति. भू इति धातुरूपी अङ्गमस्ति. भू इत्यस्य धातुसंज्ञा अस्ति. भुवादयो धातवः इत्यनेन तस्य धातुसंज्ञा अस्ति, अङ्गसंज्ञा अपि अस्ति. भवति इत्यत्र प्रत्ययः एव निमित्तं भवति. शप्रत्ययं निमित्तीकृत्य भू इति धातौ अङ्गकार्यं भवति. प्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति. प्रत्ययनिमित्तिकम् अङ्गकार्यम् इति वदामः. भूयोगः शप् इत्यत्र शपं निमित्तीकृत्य भू इति अङ्गे अङ्गकार्यं भूत्वा, इत्युक्ते गुणकार्यं भूत्वा भो भवति. पश्चात् सन्धिकार्यं भवति, किन्तु तत्र सन्धिकार्यार्थं प्रत्ययः अनावश्यकः. केवलम् अङ्गकार्यार्थम् एव प्रत्ययस्य आवश्यकता अस्ति. भो इत्यत्र यचोयवायावः इति सूत्रेण यान्तवान्तादेशसन्धिः भवति खलु, तदर्थं प्रत्ययः अनावश्यकः. इत्युक्ते सन्धिकार्यं भवितुं प्रत्ययः अनावश्यकः. सन्धिकार्यं केवलं वर्णनिमित्तिकं कार्यम् एव. शप्रत्ययं निमित्तीकृत्य भू इति धातुरूपी अङ्गे गुणकार्यं भवति. सामान्यतया प्रत्ययं निमित्तीकृत्य धातुरूपी अङ्गे कार्यं भवति. कुत्रचित् प्रत्यये अपि कार्यं भवति इति वयं पठितवन्तः अस्मिन्नेव करपत्रे. कुत्रचित् प्रत्यये अपि कार्यं भवति. कीदृशं कार्यम्? इडागमकार्यम्. इट् आगमः भवति खलु, प्रत्ययस्य आदौ आयाति. इट् टित् अस्ति इति कारणतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ कार्यं भवति. प्रत्यये अपि कार्यं भवति इति वक्तुम् इडागमकार्यम् एकम् उदाहरणम्. साधारणतया प्रत्ययं निमित्तीकृत्य धातुरूपी अङ्गे एव कार्यं भवति. अपि च अत्र गुणकार्यं सार्वधातुक अर्धधातुकयोः सूत्रेण भवति. सार्वधातुक अर्धधातुकयोः इत्यस्मिन् सूत्रे अङ्गस्य इति अधिकारसूत्रस्य अधिकारः अस्ति. एवमेव पुगन्तलघुपथस्य च इत्यस्मिन् सूत्रे सार्वधातुक अर्धधातुकयोः इत्यस्य अनुवृत्तिः अस्ति. अधिकारसूत्रम् इत्युक्ते अधिकारसूत्रस्य अनुवृत्तिः बहुषु सूत्रेषु वर्तते, तदर्थमेव तस्य नाम अधिकारसूत्रम् भवति. इत्यत्र शप्रत्ययस्य कृते भू इति अङ्गं भवति, तिप्रत्ययस्य कृते भव इति अङ्गं भवति. भव इति अङ्गम् अदन्तम् अङ्गम् अस्ति. अत्र अङ्गम् इति विशेष्यमस्ति, अदन्तम् इति विशेषणमस्ति. तत्र विशेषणविशेष्यभावः अस्ति. अङ्गम् अदन्तम्, अदन्तम् इत्यस्मिन् पदे बहुव्रीहि समासः अस्ति. अनदन्तम् इत्यत्रापि बहुव्रीहि. कीदृशबहुव्रीहिः? नै बहुव्रीहि समासः अस्ति. अनदन्तम् इत्यस्मिन् पदे न विद्यते अदन्तं यस्य तत् इति विग्रहवाक्यम्. अदन्तम् अनदन्तम् इमानि पदानि अङ्गस्य विशेषणानि भवन्ति. अङ्गं कीदृशम्? अङ्गमदन्तम्, अङ्गम् अनदन्तम्. स्मर्तव्यः अंशः कः? भुवादिगणे अदन्तमङ्गमस्ति. भुवादिगणे बहवः धातवः सन्ति, सहस्राधिकं धातवः सन्ति इति अहं चिन्तयामि. भुवादिगणे ये धातवः सन्ति तेषां सर्वेषां धातूनां विषये अदन्तमङ्गमेव सिद्ध्यति. चतुर्षु गणेषु अङ्गमदन्तम् अस्ति. भुवादिगणे भव इति अङ्गमस्ति. दिवादिगणे दिव्य अथवा नश्य इति रूपमस्ति खलु, अतः अदन्तमस्ति. तुदादिगणे तुद लिख इति अङ्गमस्ति. अङ्गमित्युक्ते तिङ् प्रत्ययस्य कृते धातुविकरणयोः मेलनेन यद्रूपं सिद्ध्यति तदेव अङ्गम्. कस्मिन् प्रसङ्गे वदन्ति अस्मि? धातुविकरणयोः मेलनेन यद्रूपं सिद्ध्यति तदेव तिङ् प्रत्ययस्य कृते अङ्गम्. अपि च चोरय चुरादिगणे अथवा कथय इति अदन्तम् अङ्गं सिद्ध्यति चुरादिगणे. किन्तु अन्येषु षट्सु गणेषु अनदन्तम् अङ्गं सिद्ध्यति. अङ्गम् अदन्तम् अनदन्तम् इत्यस्य प्रयोजनमस्ति वा? अस्ति. प्रयोजनं किम् इति अग्रे वक्ष्यते. अदन्तम् अङ्गमस्ति चेत् कानिचन विशिष्टकार्याणि, अनदन्तम् अङ्गमस्ति चेत् अन्यानि कार्याणि भवन्ति. उदाहरणार्थं लोट्लकाररूपेषु अदन्तम् अङ्गमस्ति चेत् अतोहेः इति एकं सूत्रमस्ति. अतोहेः इति सूत्रेण अङ्गमदन्तं चेत् तत्र हि प्रत्ययस्य लुक् भवति. अनदन्त अङ्गेषु तादृशं कार्यं न भवति. भुवादिगणे पठ इति अङ्गमस्ति खलु, पठ इति अदन्तमङ्गमस्ति इति कृत्वा लोट्लकारे मध्यमपुरुष एकवचनरूपं पठ भवति. अदन्त अङ्गेषु हि प्रत्ययस्य लोपः भवति. अन्येषु गणेषु इत्युक्ते यस्मिन् गणे अनदन्तम् अङ्गमस्ति तत्र रूपाणि कथं भवन्ति? ज्ञाधातुः अस्ति. ज्ञाधातोः प्रसङ्गे पश्यामश्चेत् जानीहि इति रूपं सिद्ध्यति. तत्र हि प्रत्ययस्य लुक् न भवति. पाधातुतः लोट्लकारमध्यमपुरुष एकवचनरूपं पाहि अस्ति. तत्र हि प्रत्ययस्य लोपः न भवति. अदन्त अङ्गेषु एव अतोहेः इति सूत्रेण हि प्रत्ययस्य लोपः भवति. आहत्य मम आशयः कः? अदन्तमङ्गम् अनदन्तमङ्गं कुत्र अस्ति? एतत् सर्वं किमर्थं चिन्तनीयम् इत्युक्ते तेषां प्रयोजनमस्ति. अग्रे गत्वा वयं तस्मिन् प्रसङ्गे स्पष्टतया विस्तरेण पठिष्यामः. अपि च दशधातुगणाः अङ्गस्य अन्तिमवर्णस्य आधारेण गणद्वये विभक्ताः. तावत्पर्यन्तं वयं पठितवन्तः दशधातुगणाः अङ्गस्य अन्तिमवर्णम् अनुसृत्य गणद्वये विभक्ताः. चतुर्षु गणेषु अदन्तमङ्गं, षट्सु गणेषु अनदन्तम् अङ्गं. तावत्पर्यन्तं वयं पठितवन्तः. इदानीं करपत्रं पश्यन्तु. दशलकाराः अपि गणद्वये विभक्ताः इति लिखितमस्ति. अष्टमबिन्दुतः पठनीयं. दशलकाराः अपि गणद्वये विभक्ताः, सार्वधातुकलकाराः आर्धधातुकलकाराः च इति. सत्यभामा भगिनी पठतु.
दशलकाराः अपि गणद्वये विभक्ताः, सार्वधातुकलकाराः आर्धधातुकलकाराः च. तयोः भेदः कः? क्रियापदस्य निर्माणक्रमे सर्वप्रथमम् अस्माकं विवक्षानुगुणं धातु आनीयते यथा वत् इति धातुः तदा पुनः विवक्षानुगुणं लकारः आनीयते यथा लट् लकारः वत् योगः लट् परं लटः स्थाने तिबादयः आनीयन्ते यथा यथेच्छं यदा प्रथमपुरुष एकवचने तिप् पकारस्य इत्संज्ञा लोभः च ति अवशिष्यते वद् योगः ति अत्र सर्वमहत्त्वपूर्णसिद्धान्तः वद् ति इत्यनयोः सम्पर्कः अस्ति स्पर्शः अस्ति यतः तयोः मध्ये अन्य कोऽपि प्रत्ययः नास्ति अत्र वदामः यत् वद् धातुना ति प्रत्ययः दृश्यते यतः तयोः मध्ये बाधा नास्ति अन्यः कोऽपि प्रत्ययः नास्ति येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सर्वधातुक तिङ् प्रत्ययः दृश्यते अपि च सः तिङ् प्रत्ययः कर्तृत्वे अस्ति तत्र सः लकारः सर्वधातुकलकारः इति उच्यते क्रियापदस्य निर्माणक्रमे धातुना तिङ् प्रत्ययः न दृश्यते चेत् सः लकारः अर्थधातुकलकारः अत्र सर्वधातुकलकाराः अपि च अर्थधातुकलकाराः अनयोः कः भेदः इत्यस्मिन् विषये किञ्चित् चर्चितम् क्रियापदस्य निर्माणक्रमे प्रथमम् अस्माकं विवक्षानुगुणम् एकं धातु प्रथमम् आनीयते ततः विवक्षानुगुणं लकारः आनीयते अत्र लट् लकारः इति उक्तं धातु वद् धातुः इति वद् योगः लट् ततः लटः स्थाने तिबादयः विधीयते यद् इदानीं भवती उक्तवती लटः स्थाने लस्य इति सूत्रेण पिबादयः लस्य इति सूत्रेण तिब् तिङ् प्रत्ययः विधीयते इति अत्र तिबादयः इत्यनेन इदानीं प्रथमपुरुष एकवचनप्रत्ययः आनीयते तिप् इत्यस्य पकारस्य इत्संज्ञा लोपः च हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा लोभः तस्य लोभः इत्यनेन भवति ति अवशिष्यते इदानीं वद् योगः ति इति स्थितिः अत्र सर्वमहत्त्वपूर्णसिद्धान्तः इति उक्तमस्ति वद् योगः ति इदानीं तयोः मध्ये कोऽपि बाधा नास्ति व्यवधानं नास्ति इति उक्तमस्ति तत्र तिङ् धातुना तिङ् प्रत्ययं साक्षात् द्रष्टुं शक्यते अतः तयोः मध्ये बाधा नास्ति अन्यः कोऽपि प्रत्ययः नास्ति इति उक्तमस्ति येषु लकारेषु क्रियापदस्य निर्माणक्रमे धातुना सर्वधातुक तिङ् प्रत्ययः दृश्यते अपि च सः तिङ् प्रत्ययः कर्तृत्वे अस्ति इदानीं ति इति प्रत्ययः कर्तृत्वे अस्ति तद् धातुना साक्षात् दृश्यते अपि सः लकारः सर्वधातुकलकारः अतः इदानीं लेट् इति सर्वधातुकलकारः इति भवति यत्र क्रियापदस्य निर्माणक्रमे धातुना तिङ् प्रत्ययः न दृश्यते चेत् तत् तस्य लकारस्य अर्थधातुकलकारः इति नाम यदि इदानीं धातुना साक्षात् तिङ् प्रत्ययं न द्रष्टुं शक्यते मध्ये अन्य कोऽपि प्रत्ययः अस्ति चेत् तत्र बाधा अस्ति चेत् तादृशलकारः अर्थधातुकलकारः इति उच्यते
उत्तमं दशलकाराः सन्ति इति उक्तमस्ति दशलकाराः के
लिट् दोट् लिङ् विदर्लिङ् तदनन्तरं लट् लिट् लेट् लिट् लिङ् विदर्लिङ् आशीर्लिङ् लृङ् अपि अस्ति वा
लृङ् अस्ति लुङ् अस्ति
लुङ्
अत्रैव लिखितं खलु क्रियापदस्य निर्माणक्रमे सोपानानि सन्ति. अत्र क्रमः अस्ति इति स्मर्तव्यः अंशः. क्रियापदस्य निर्माणक्रमे तत्र सोपानानि सन्ति. कस्मिन् स्तरे कः प्रत्ययः आयाति, केन क्रमेण प्रत्ययाः धातोः परम् आयान्ति इति अत्र प्रश्नः. क्रियापदस्य निर्माणावसरे सोपानेषु कार्याणि भवन्ति चेत् कदा कः प्रत्ययः आयाति, कस्मिन् सोपाने कस्मिन् स्तरे तिङ् प्रत्ययः आयाति. सार्वधातुकप्रक्रिया अस्ति चेत् तिङ् प्रत्ययः आदौ एव आयाति, आर्धधातुकप्रक्रिया अस्ति चेत् पश्चात् आयाति इति अग्रे उच्यते. अस्माकं विवक्षानुगुणं, विवक्षा इति कीदृशं पदम्?
विवक्षा
सन् प्रत्ययान्तरूपम् अस्ति. वक्तुम् इच्छा इति अस्ति. विवक्षा इति पदस्य पदनिष्पत्तिः कथं भवति, सूत्राणाम् आधारेण रूपं साधितवती. अपि च अस्मिन् परिच्छेदे एव बहु किमपि लिखितम् अस्ति. सर्वमहत्त्वपूर्णसिद्धान्तः अयं सिद्धान्तः सर्वमहत्त्वपूर्णसिद्धान्तः इत्युक्ते वद् धातुं स्वीकुर्मः, लट्लकाररूपं साधयितुम् इच्छामः, अतः वद्योगः लट् इति अस्ति. लट् इत्यत्र टकारस्य इति संज्ञा, अकारः उच्चारणार्थः, ला शिष्यते, लकारस्य स्थाने लस्य सूत्रेण प्रथमपुरुष एकवचनविवक्षा अस्ति इति कारणतः तिप् इति प्रत्ययं योजयामः. तिप् इत्यत्र पकारस्य इति संज्ञा, ति अवशिष्यते, तेन वद्योगः ति इति स्थितिः अस्ति. अत्र वद्योगः ति इत्यत्र द्वयोर्मध्ये धातु तिङ् प्रत्ययोः सम्पर्कः अस्ति, स्पर्शः अस्ति, मध्ये किमपि व्यवधानं नास्ति, मध्ये कोऽपि अन्यप्रत्ययः नास्ति. अतः बालानां सुखबोधाय, अस्माकं सुलभावगमनाय, अस्माकम् अवगमनार्थम् एवं लिखितमस्ति. कथं? वद् धातुना तिङ् प्रत्ययः दृश्यते इति लिखितमस्ति. बालानां सुखबोधाय लिखितमस्ति. वद् धातुना ति प्रत्ययः दृश्यते, अथवा वद् धातुः ति प्रत्ययं द्रष्टुं शक्नोति, अतः मध्ये विकरणप्रत्ययः आगन्तुं शक्नोति. द्वयोर्मध्ये बाधा नास्ति, कोऽपि अन्यप्रत्ययः नास्ति इति कारणतः मध्ये शप् विकरणप्रत्ययः आगन्तुं शक्नोति. आहत्यत्र सारांशः कः? येषु लकारेषु सार्वधातुकतिङ् प्रत्ययः धातुना दृश्यते ते लकाराः सार्वधातुकाः. अपि च तिङ् प्रत्ययः कर्त्रर्थे अस्ति. कर्त्रर्थे अस्ति इत्युक्ते कर्तरिप्रयोगे इति स्पष्टतया ज्ञातव्यम्. कर्त्रर्थकतिङ् प्रत्ययः धातुना दृश्यते चेत् तदा मध्ये गणविकरणप्रत्ययः आगन्तुं शक्नोति. यस्मिन् लकारे तादृशी स्थितिः अस्ति सः लकारः सार्वधातुकलकारः. यत्र तादृशी स्थितिः नास्ति सः लकारः आर्धधातुकलकारः. क्रियापदस्य निर्माणसमये, निर्माणक्रमे धातोः परं कर्त्रर्थकतिङ् प्रत्ययः अस्ति चेत् तदा गणविकरणप्रत्ययः आयाति इति एका वार्ता. यथेच्छम् इति पदमस्ति खलु, तस्मिन् पदे अव्ययीभावसमासः अस्ति. इच्छाम् अनतिक्रम्य इति विग्रहवाक्यं वक्तव्यं भवति.
आर्थधातुक
वदतु.
आर्थधातुकलकारः इत्युक्ते यत्र धातु तिङ् प्रत्ययोः मध्ये व्यवधानम् अस्ति, अन्यप्रत्ययः अस्ति चेत् तादृशप्रत्ययलकारः आर्थधातुकलकारः इति.
उत्तमम्. वद्योगः ति इति उदाहरणं दत्तमस्ति. अस्माकं विवक्षा द्विवचनरूपम् अस्ति चेत्, द्विवचनविवक्षा अस्ति चेत् तत्र तस् इति प्रत्ययः विधीयते खलु.
आम्.
तादृशम् उदाहरणं स्वीकृत्य वदतु. पठतः वदतु.
पठ्योगः इदानीं कर्तरि अत्र विवक्षा अस्ति चेत् अत्र शप् विकरणप्रत्ययः कर्तृशप् इति सूत्रेण मध्ये आगच्छति. वद्योग आयोगः तस् इति.
पठ् धातुं स्वीकरोतु. पठतः इति रूपसाधनवेलायाम् अस्मिन् परिच्छेदे यद् लिखितमस्ति तादृशरीत्या एव वर्णयतु.
प्रथमं पठ् योगः लेट् इति अस्ति. तदनन्तरं यदा लेटः स्थाने लस्य इति आगच्छति, पठ् योगः लस्य. तदनन्तरं त तस्य तृतीयसोपाने तिपादेः विधीयते, पठयोगः तिप् इति भवति. इदानीं
द्विवचनविवक्षा
तस् इति आगच्छति तीतः. इदानीं पठयोगः तस् इति अस्ति, तत्र सकारस्य संज्ञा न भवति, न विभक्तौ तु स्माः अस्ति खलु. अतः इदानीं पठयोगः तस् इति अस्ति. इदानीं पठदाधुना तस् इति प्रत्ययः साक्षात् द्रष्टुं शक्यते, मध्ये विधानं नास्ति इति कृत्वा, अपि च अयं प्रत्ययः कर्तृ अर्थे अस्ति इति कृत्वा कर्तरि शप् इति सूत्रेण शपः मध्ये विधीयते. विकरणप्रत्ययस्य
आगमनं
भवति, कर्तुं शक्यते इति वक्तव्यं वा?
आगन्तुं शक्नोति. प्रथमपुरुषद्विवचनप्रत्ययः अस्ति तस् प्रत्ययः. तस् प्रत्ययः कर्त्रार्थकप्रत्ययः, अपि च सार्वधातुकप्रत्ययः. सार्वधातुककर्त्रार्थकप्रत्ययः धातुना साक्षात् दृश्यते, मध्ये किमपि व्यवधानं नास्ति इत्यतः वदतु.
इत्यतः विकरणप्रत्ययः मध्ये आगन्तुं शक्यते. इदानीं कर्तरि शप् इति सूत्रेण भवादिगणधातुः अस्ति, अतः शप् इति अत्र आगच्छति. शकारपकारस्य लोपानन्तरम् अकारः अवशिष्यते. पठयोगः आयोगः तस् इति पठत्त. अत्र सकारस्य सस्जोषोरुः इत्यनेन ऋत्वं भवति, तदनन्तरं
खरवसानयोर्विसर्जनीयः
इत्यनेन ऋत्वस्य विसर्गादेशः भवति.
उत्तमम्. आहत्यत्र सारांशः कः? यस्मिन् लकारे धातुना कर्त्रार्थक सार्वधातुक तिङ्प्रत्ययः साक्षात् दृश्यते, तत्र एव मध्ये गणविकरणप्रत्ययः आगन्तुं शक्नोति. तत्र एव गणचिन्तनं करणीयम्, अपि च सः धातुः कस्मिन् गणे अस्ति इति द्रष्टव्यं. दृष्ट्वा एव रूपं साधयितुं शक्नुमः इति तत्र वार्ता अस्ति खलु?
आं भगिनि.
नरसिंह हेग्डे महोदय, भवान् पठतु अग्रे किं लिखितम्.
अयं भेदः नितरां महत्त्वपूर्णः, यतः धातुना तिङ्प्रत्ययः दृश्यते चेत् तर्हि तेन एव सम्पर्केण विकरणप्रत्ययः विहितः अस्ति. एकैकस्य गणस्य स्वस्य पृथक् विकरणप्रत्ययः विकरणलोपो वा इति अस्माभिः प्रथमपाठे दृष्टं. तेन विकरणभेदेन तिङ्रूपाणि भिद्यन्ते. तर्हि भिन्नगणेषु तिङ्रूपाणि भिद्यन्ते विकरणप्रत्ययानां कारणेन. गणस्य लक्षणं प्रत्ययेन ज्ञायते, अतः अत्र अवधेयं विकरणप्रत्ययाः यत्र आयान्ति तत्र धातोः तिङन्तरूपस्य ज्ञानार्थं धातु कस्मिन् गणे अस्ति इति अवश्यं बोध्यम्. केषु लकारेषु विकरणप्रत्ययाः आयान्ति? यत्र कृते सा धातुना तिङ्प्रत्ययः दृश्यते तत्र कुत्र? सर्वधातुकलकारेषु इति. आर्धधातुकलकारेषु धातुना तिङ्प्रत्ययः न दृश्यते, अतः विकरणप्रत्ययः नायाति. विकरणप्रत्ययः नायाति, अतः तत्र गणभेदेन तिङ्भेदः न जायते. फलितार्थ एवं यत् सार्वधातुकलकारेषु गणीयचर्चा करणीया, आर्धधातुकलकारेषु गणीयचर्चा नापेक्षिता. तत्र गणस्य विषयः नायाति एव. अत्र अयं भेदः नितरां महत्त्वपूर्णः, यतः धातुना तिङ्प्रत्ययः दृश्यते चेत् तर्हि तेन एव सम्पर्केण विकरणप्रत्ययः विहितः अस्ति. सार्वधातुकलकारेषु तत्र धातु तिङ्प्रत्यय मध्ये कोऽपि व्यवधानं नास्ति, धातु साक्षात् तिङ्प्रत्ययं पश्यति, अतः तत्र कर्तरिशप्तेन विकरणप्रत्ययस्य विकरणप्रत्ययम् आयाति. एकैकस्य गणस्य स्वस्य पृथक् विकरणप्रत्ययः अस्ति. वयं जानीमः भवादिगणे शप् अस्ति, अनन्तरम् अदादिगणे कोऽपि नास्ति, जुहत्यादिगणे अपि नास्ति इति.
कृपया एकवारं दशसु गणेषु कीदृशविकरणप्रत्ययः आयाति वदतु.
वादिगणे शप् अस्ति, तत्र शप् इति पकारः अस्ति, हलन्त्यमिति शकारस्य सौन्यमते अ इति अवशिष्यते. अदादिगणे शप्स्य लोपः भवति, लुक् इति लोपः भवति, तत्र कोऽपि नास्ति. युवत्यादिगणे अपि श्लू इति लोपः भवति, तत्र अत्रापि कोऽपि नास्ति. अनन्तरं
दिवादिगणः,
दिवादिगणे शन् इति अस्ति. स्वादिगणः
तुदादिगणः
रुधादिगणः
तनादिगणः
तनादिगणे ऊ अस्ति.
नवमः गणः क्रियादिगणः
क्रियादिगण नो निश्चायाति प्रथम अनन्तरं क्षपायति.
उत्तमम्. एकैकस्य गणस्य स्वस्य पृथक् विकरणप्रत्ययः अथवा विकरणलोपः वा भवति इति तदर्थमेव अत्र लिखितम् अस्ति. भुवादिगणे कर्तरि शप् इति सूत्रेण शप् विकरणप्रत्ययः आयाति. अदादिगणे अदिप्रभृतिभ्यः शपः इति सूत्रेण आदौ शप् प्रत्ययः आयाति, पश्चात् तस्य लोपः भवति अथवा लुक् भवति. जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः. सर्वेषु गणेषु आदौ कर्तरि शप् आयाति, किन्तु शपं प्रबाध्य अपवादत्वेन विशिष्टसूत्रेण तत्तत् गणीयविकरणाः आयान्ति. जुहोत्यादिभ्यः श्लुः इति सूत्रेण श्लु भवति. श्लु भवति इत्युक्ते द्वित्वं भवति. दिवादिगणे दिवादिभ्यः श्यन् इति सूत्रेण श्यन् विकरणप्रत्ययः आयाति. स्वादिगणे स्वादिभ्यः स्नुः इति सूत्रेण स्नुविकरणप्रत्ययः आयाति. तुदादिगणे तुदादिभ्यः शः इति सूत्रेण श विकरणप्रत्ययः आयाति. रुधादिगणे रुधादिभ्यः श्नम् सूत्रेण श्नम् विकरणप्रत्ययः आयाति. तनादिगणे तनादिकृण्भ्यः उः इति सूत्रेण ऊ विकरणप्रत्ययः आयाति. ऊ विकरणप्रत्ययः एकः एव आर्धधातुकः. अन्ये गणविकरणप्रत्ययाः सार्वधातुकाः. केवलम् ऊ विकरणप्रत्ययः तनादिगणे अस्ति, सः विकरणप्रत्ययः एव आर्धधातुकः. क्रियादिगणे क्रियादिभ्यः श्ना इति सूत्रेण श्ना इति विकरणप्रत्ययः आयाति. चुरादिगणे कर्तरि शप् इति सूत्रेण शप् विकरणप्रत्ययः आयाति. इत्युक्ते औपदेशिकधातूनां प्रसङ्गे अपि कर्तरि शप् कार्यम् अस्ति, आतिदेशिकधातूनां प्रसङ्गे अपि कर्तरि शप् इत्यस्य कार्यम् अस्ति. इत्युक्ते चुरादिगणे औपदेशिकधातुतः नूतनधातोः निर्माणं भवति चेदपि तत्र कर्तरर्धकसार्वधातुकप्रत्ययः तिङ् प्रत्ययः अस्ति इति कारणतः मध्ये कर्तरि शप् इति सूत्रेण शप् आयाति एव. अत्र एकं वाक्यं लिखितमस्ति, विकरणभेदेन तिङन्तरूपाणि भिद्यन्ते. मा इति धातुः अस्ति, मा धातुः अदादिगणे अस्ति चेत् तस्य रूपं किं भवति? दीवादिगणे अस्ति चेत् मायते. उत्तमं. विकरणभेदेन तादृशरूपभेदः सिद्ध्यति. मम पुरतः कानिचन उदाहरणानि सन्ति, महोदय भवान् वक्तुमिच्छति चेत् वदतु. जी धातुः भुवादिगणे अस्ति, तस्य लटीरूपं जयति तत्र रूपं साधयितुम् इच्छति वा?
भू धातु अस्ति, भूयोग लट् तत्र लट् वर्तमाने लट् टकारस्य इत्सञ्ज भवति अलन्तमित्यनेन तस्य लोप इत्यनेन लोप भवति. भूयोग ल अवश्य भूयोग ल अस्ति अतः तत्र तत्र ल स्थाने लस्य आयाति. भूयोग लस्य लस्य स्थाने तिबादय आयान्ति. प्रथमपुरुषे एकवचनम् इत्युक्ते तत्र ति आयाति, भूयोग ति. अत्र धातु तिङ्प्रश्यं दक्ष दृश्यति सार्वधातुकलकारमस्ति, अत्र कर्तरि शप् इत्यस्य प्रसक्तिः भवति, अतः भवति भूयोग शप् योग ति.
धातुः अस्ति जी, जी धातोः रूपं जयति.
क्षम्यतां, जी जी क्षम्यतां. जी योग कर्तृतक योक्ष अस्ति, कर्तृतक कर्तरि प्रयोगं ततः तत्रयति. जी योग तिप्पायति. अनन्तरं तत्र मध्ये कर्तरि शप् इत्यनेन शप् आयाति, शप् मध्ये अ अवशिष्यते, जी योग अयोगति. अत्र अ इति सार्वधातुक अस्ति, अतः गुणस्य प्रसक्तिः अस्ति सार्वधातुक अर्धातुक इत्यनेन गुणः भवति, जे योग अ भवति. अनन्तरं एच इत्यनेन जय जय योग अयोगति, जयति इति रूपं.
जी धातोः रुटिरूपं जेष्यति इति भवति, जेष्यति रूपं साधयतु.
जेष्यति तत्र अर्धातुकलकारः अस्ति, अतः स्य इति आयाति. अनन्तरं स्य इति अर्धधातुकः अस्ति, अतः सार्वधातुक अर्धधातुक इत्यनेन अत्रापि गुणः भवति, जे योगस्य योगति भवति, जेष्यति. अनन्तरं भावकर्मण इत्यनेन शकार मूर्धनशकारः इति जेष्यति
आदेशप्रत्यययोः सूत्रेण आदेशप्रत्ययोः इत्यनेन षत्वं भवति. उत्तमम्. अत्र तु अवगन्तव्यः विषयः कः? आर्धधातुकलकारेषु गणविकरणप्रत्ययः न आयाति. तादृशचिन्तनम् अनावश्यकम्. उदाहरणार्थम् अन्यानि रूपाणि अहं स्मारयामि. पूर्वम् अहम् उक्तवती मा धातोः रूपम् अदादिगणे अस्ति चेत् माति इति भवति. लृट्लकाररूपं पश्यामश्चेत् मास्यति इति रूपं भवति. आर्धधातुकलकारेषु गणविकरणचिन्तनम् अनावश्यकम्. दाधातुः जुहोत्यादिगणे अस्ति. जुहोत्यादिगणीय दाधातोः रूपं ददाति. औपदेशिकावस्थायां तस्य रूपं डुदाम् अस्ति, किन्तु लौकिकधातोः रूपं दा अस्ति. तस्य लटीरूपं ददाति, किन्तु लृटीरूपं दास्यति. तत्र स्याविकरणप्रत्ययः आयाति तावदेव.
एकः संशयः अस्ति, जि धातु अस्ति, लिट् रूपे जे कथं भवति? अत्र तु विकरणप्रत्ययः न आयाति, गुणः न भवति, जे कथं भवति? जि
नरसिंह हेग्डे महोदय, भवान् वक्तुमिच्छति वा अत्र किमर्थं गुणकार्यं भवति?
आम्, अत्र जि इति अस्ति, जि योग अनन्तरं अत्र स्य इति प्रत्यय आयाति, गण लकारनिमित्तिकप्रत्यय आयाति. अत्र किमर्थम् इत्युक्ते अत्र अर्धधातुकलकारः अस्ति, अतः जि योगस्य इति आयाति. स्य इति अर्धधातुकप्रत्यय अस्ति, न तिङ् नास्ति, न चित् नास्ति. अतः तत्र सूत्रस्य प्रसक्तिः भवति सार्वधातुक अर्धधातुकयोः इत्यनेन. अतः गुणः भवति जि योग स्य, जे योग स्य भवति, अनन्तरं जेष्यति इति भवति.
महोदयस्य प्रश्नस्य उत्तरं किम् इत्युक्ते, सार्वधातुक अर्धधातुकयोः इति सूत्रम् ईगन्तधातूनां प्रसङ्गे कार्यं करोति, अपि च धातोः परं सार्वधातुकप्रत्ययः अस्ति चेदपि कार्यमस्ति. अर्धधातुकप्रत्ययं निमित्तीकृत्यापि गुणकार्यं भवति तेन सूत्रेण. स्याप्रत्ययः आर्धधातुकसंज्ञकः इत्युक्ते तिंशित् नास्ति, अतः स्याप्रत्ययः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः एव. आर्धधातुकप्रत्ययः धातोः परमस्ति चेदपि सार्वधातुकार्धधातुकयोः सूत्रेण गुणकार्यम् अत्र भवति. स्याप्रत्ययं निमित्तीकृत्य जि इति धातौ अङ्गकार्यम् अथवा गुणकार्यं भवति, अतः एव जि जे भवति.
नरेश महोदय अवगतं महोदय. नरेश महोदय,
न जे जे कथं भवति अहं न अवगतवान्.
जे अत्र जि अत्र जि इति इगन्तं धातु अस्ति, अन्ते इकारः अस्ति. परे यदि सार्वधातुकः अस्ति अपि गुणः भवति, अर्धधातुकप्रत्ययः अपि अस्ति गुणः भवति. तत् सूत्रं सार्वधातुक अर्धधातुकयोः इति सूत्रस्य अर्थः तदेव अस्ति. यदि सार्वधातुकप्रत्ययः भवति गुणः भवति, यदि आर्धधातुकप्रत्ययः अस्ति चेत् तत्रापि गुणः भवति इति अस्ति तत् सूत्रं सार्वधातुक आर्धधातुकयोः. अत्र सार्वधातुकं नास्ति स्य इति, तिङ् नास्ति, शित् नास्ति, अतः सार्वधातुकमस्ति. परन्तु स्य इति अर्धधातुकमस्ति, अर्धधातुकशेष इत्यनेन, अतः सूत्रम् अन्वयति अत्र सार्वधातुक अर्धधातुक इति सूत्रेण गुणः भवति. जि इति इगन्तं गङ्गस्य गुणः भूत्वा ए इति भवति.
धन्यवादाः.
तदर्थमेव अत्र एकं वाक्यं लिखितमस्ति, भिन्नगणेषु तिङन्तरूपाणि भिद्यन्ते विकरणप्रत्ययानां कारणेन. इत्युक्ते सार्वधातुकप्रक्रियायाम् एवं रीत्या तिङन्तरूपाणि गणविकरणप्रत्ययभेदेन भिद्यन्ते. जि धातोः रूपं जेष्यति, चि धातुः अस्ति चेत् चेष्यति अथवा चेष्यते एवं भवति. किन्तु जि धातोः रूपं जयति, भुवादिगणे धातुः अस्ति इति कारणतः, तत्र विकरणप्रत्ययः शप् अस्ति इति कारणतः जि धातोः रूपं जयति. किन्तु चि धातुः स्वादिगणे अस्ति इति कारणतः, श्नुविकरणप्रत्ययः आयाति इति कारणतः चि धातोः रूपं चिनुते. इत्युक्ते मम आशयः कः, अत्र जि धातुः अपि ईगन्तधातुः, चि धातुः अपि ईगन्तधातुः, किन्तु द्वयोः लटीरूपं भिन्नम् अस्ति. किमर्थं चेत् धातुद्वयं भिन्ने गणे अस्ति इति कारणतः तयोः रूपं भिद्यते, विकरणप्रत्ययभेदेन भिद्यते. किन्तु जि धातोः लृटीरूपं जेष्यति, चि धातोः लृटीरूपं चेष्यति. इत्युक्ते आर्धधातुकप्रक्रियायाम् आर्धधातुकलकारेषु गणविकरणचिन्तनम् अनावश्यकम्। अन्यत् उदाहरणमपि वदामि, क्रीधातुः अस्ति, क्रीधातुः नवमे गणे अस्ति, क्रीणाति इति रूपम् अस्ति। किमर्थं क्रीणाति रूपम् अस्ति? तत्र श्ना इति विकरणप्रत्ययः अस्ति इति कारणतः क्रीणाति रूपम् अस्ति। किन्तु लृटि रूपं क्रेष्यति, क्रीधातुः ईगन्तधातुः, तस्मात् परं स्या इति लकारनिमित्तिकविकरणप्रत्ययः अस्ति, अतः स्याप्रत्ययं निमित्तीकृत्य क्री इति धातुरूपी अङ्गे गुणकार्यं भूत्वा क्रे भवति, क्रेयोगः श्यति इति रूपं, षत्वसहितं रूपं तत्र सिध्यति। एवं गणविकरणभेदेन सार्वधातुकप्रक्रियायां रूपाणि भिद्यन्ते। सारांशः कः? सार्वधातुकलकारेषु कर्त्रर्थगतिङ् प्रत्ययः धातुना द्रष्टुं शक्नोति। अस्य अवगमनार्थमेव अग्रे उदाहरणं दत्तमस्ति। नरेश् महोदय, भवान् वदतु उदाहरणम्।
अस्ति वद् धातुः अस्ति, वद् योग लट्, लट् अस्ति टकारस्य इत्संज्ञा भवति, लोपः भवति। ल अस्ति, लस्य सूत्रेण ति आयाति, वद् योग ति। अतः भवादिगणे अस्ति, मध्ये विकरणप्रत्यय शप् आयाति, वद् योग शप् योगति। शप् अस्ति चेत् शकारस्य पकारस्य इत्संज्ञा भवति, विकरणप्रत्यय अस्थीयते, वद् योग अ योगति, वर्णमेलनं वदति अस्ति।
अत्र सोपानानि सन्ति खलु, सोपानेन कार्याणि भवन्ति। अत्र आदौ वद् धातुतः प्रथमे स्तरे लट्लकारविवक्षायां लट् इति लकारप्रत्ययः आयाति, लकाराः अपि प्रत्ययाः एव। पुनः वदामि, लकाराः अपि प्रत्ययाः एव। लट् इति प्रत्ययः कीदृशः इति चिन्तयामश्चेत्, लट् इति प्रत्ययः सार्वधातुकः नास्ति। चिन्तयन्तु, लट् इति प्रत्ययः तिङ् नास्ति, षित् नास्ति, अतः सार्वधातुकः नास्ति। लकाराः अपि प्रत्ययाः एव। लट् इति प्रत्ययः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः एव। किन्तु लट्लकारविवक्षायां लट् इति प्रत्ययं यदा योजयामः, सः लट् प्रत्ययः केवलं क्षणिकमात्रमेव तत्र तिष्ठति, क्षणकालमेव तत्र तिष्ठति आर्धधातुकं भूत्वा। लट् प्रत्ययः आर्धधातुकसंज्ञकः एव, तिंशित् नास्ति इति कारणतः सः लट् प्रत्ययः केवलं क्षणिककालमेव तत्र तिष्ठति। झटिति तस्य स्थाने, लट्लकारप्रत्ययस्य स्थाने लस्य सूत्रेण अस्माकं विवक्षानुगुणं तिबादयः आयान्ति। लट् प्रत्ययः आर्धधातुकः चेदपि तत्र किञ्चित् कालमेव तिष्ठति, तस्य स्थाने तिबादयः लस्य सूत्रेण आयान्ति इति कारणतः वद्योगः ति इति स्थितिः अत्र अस्ति। वद् ति इत्यनयोः मध्ये किमपि व्यवधानं नास्ति, कोऽपि अन्यप्रत्ययः नास्ति। वद् धातुः तिङ् प्रत्ययं द्रष्टुं शक्नोति। कर्त्रार्थक सार्वधातुकतिङ् प्रत्ययः धातुना दृश्यते अत्र, अतः तयोर्मध्ये शप् इति गणविकरणप्रत्ययः आगन्तुं शक्नोति। अतः अत्र वद्योगः शप् योगः ति इति रूपमस्ति। सार्वधातुकलकारेषु एतादृशानि कार्याणि भवन्ति। अग्रे पठतु।
उपरितने क्रमे धातुना तिङ् प्रत्ययः ति दृश्यते, वद् योगति, नाम मध्ये कापि बाधा किमपि व्यवधानं नास्ति, धातुना तिङ् प्रत्ययः इति कारणतः कर्तरि शप् इत्यनेन सूत्रेण मध्ये विकरणप्रत्ययः शप् विहितः, भवादिगणे शप् तिष्ठति, अपरेषु गणेषु शपं प्रबाध्य तत्तत् गणे अन्ये विकरणप्रत्ययः आयान्ति। एतदर्थं सार्वधातुकलकारेषु धातुः कस्मिन् गणे अस्ति इति ज्ञातव्यम्। अत्र दत्तमस्ति वद् उदाहरणम् आसीत्, तत्र धातुना तिङ्प्रत्यय दृश्यते, धातुना साक्षात् तिङ्प्रत्यय पश्यति, मध्ये कोऽपि बाधा नास्ति। बाधा नास्ति चेत् धातुना दृश्यते, अतः तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः अस्ति। कर्तरि शप् प्रत्यय अस्ति चेत् अत्र भवादिगणे शप् विकरणप्रत्यय आयाति। अन्य गण अस्ति चेत् तत्र अन्य विकरणप्रत्यय आयाति। सार्वधातुक एतदर्थं सार्वधातुकलकारेषु धातुः कस्मिन् गणे अस्ति ज्ञातव्यम्। सार्वधातुकलकारः अस्ति चेत् वयं कस्य गणः अस्ति तत्र पश्यन्ति। आर्धधातुकलकारः अस्ति चेत् गणः न आयाति।
उत्तमं। भवान् जानाति खलु आर्धधातुकप्रत्ययः सार्वधातुकप्रत्ययः इति विषयः भिन्नः खलु?
आम् आम्।
आर्धधातुकप्रत्ययः इत्युक्ते कः?
यत् तिङ्क्षित् नास्ति।
उत्तमं। तिङ्क्षित् अस्ति चेत्
सार्वधातुकप्रत्ययः अस्ति।
उत्तमम्। आर्धधातुकप्रत्ययः सार्वधातुकप्रत्ययः इति विषयः भिन्नः, आर्धधातुकलकारः सार्वधातुकलकारः इति विषयः भिन्नः, सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः इति विषयः अष्टाध्याय्यां सूत्राणाम् आधारेण उक्तमस्ति, किन्तु आर्धधातुकलकारः सार्वधातुकलकारः इति अष्टाध्याय्यां नास्ति, किन्तु अष्टाध्याय्यां यानि यानि सूत्राणि सन्ति तेषां सूत्राणां द्वारा एतदेव उक्तमस्ति। इत्युक्ते अयं विषयः अष्टाध्याय्याम् अन्तर्निहितमस्ति इति माताजी अवगतवती, अतः दीक्षितपुष्पा माता एव एतादृशरीत्या नामकरणं कृतवती। किमर्थं नामकरणम् एवं कृतम् इत्युक्ते प्रक्रियासौलभ्यार्थम्, इत्युक्ते अस्माकं सुलभावगमनाय। प्रक्रिया कीदृशी? सार्वधातुकप्रक्रिया वा आर्धधातुकप्रक्रिया इति स्पष्टावगमनार्थम् एतादृशरीत्या लकाराणां विभजनं माताजी कृतवती। वयं सर्वे मिलित्वा आदौ सार्वधातुकप्रक्रियां ज्ञास्यामः, पश्चादेव आर्धधातुकप्रक्रियायाः प्रसङ्गे पठिष्यामः। आदौ सार्वधातुकप्रक्रियायाः प्रसङ्गे पठिष्यामः। एकः अन्यः विषयः अस्ति, कर्तरि शप् न केवलम् औपदेशिकधातूनां प्रसङ्गे आयाति, आतिदेशिकधातूनां प्रसङ्गे अपि कर्तरि शप् सूत्रेण शप् विकरणप्रत्ययः धातु तिङ्प्रत्ययोः मध्ये आयाति। चुरादिगणे चौरि इति नूतनधातोः परं कर्त्रार्थकतिङ्प्रत्ययः अस्ति, चौरि इति धातोः परं कर्त्रार्थकतिङ्प्रत्ययः अस्ति इति कारणतः द्वयोर्मध्ये कर्तरि शप् सूत्रेण शप् विकरणप्रत्ययः आयाति। कर्तरि शप् इति सूत्रम् आतिदेशिकधातूनां प्रसङ्गे अपि तस्य कार्यमस्ति इति वक्तुमिच्छामि। एतावत्पर्यन्तं सार्वधातुकप्रक्रियायां सोपानानि कानि, अपि च तिङ्प्रत्ययः कस्मिन् स्तरे आयाति इति वयं ज्ञातवन्तः। इदानीम् आर्धधातुकलकारेषु किं भवति इति एकवारम् अवलोकयाम। गोमती भगिनी पठित्वा वदतु।
आर्धधातुकलकारेषु विकरणप्रत्ययः किमर्थं न आयाति इत्यत्र किञ्चित् पश्येम। आर्धधातुकलकारः लृट् वद् योग लृट्, वद् योगस्य योग लृट्, वद् योगस्यति, वद् योग इ योगस्यति वदिष्यति। आर्धधातुकलकारेषु विकरणप्रत्ययः न आयाति इति पठितं। सार्वधातुकलकारेषु धातु बाधा नास्ति इति कारणेन तिबादिप्रत्ययः पश्यति,
तत्र किमपि बाधः नास्ति, अतः कर्तृर्थे शपादयः आगच्छति, कार्यं भवति. परन्तु आर्थधातुकलकारेषु तत्र विकरणप्रत्ययः न आयाति. किमर्थं चेत् तत्र आर्थधातुकलकारेषु धातुः अनन्तरं टिप् इति तिबादय मध्ये लकारनिमित्तकः विकरणप्रत्ययः आगच्छति. अतः तत्र प्रक्रिया भिन्ना भवति. उदाहरणेन आर्थधातुकलकार लृट् इति आर्थधातुकलकारः, लृट् इति भविष्यत्काले भवति. वधु इति धातुं स्वीकुर्मः, वधुयोग भविष्यत्काले वक्षायां लृट् इति नीत्वा तत्र स्यातसि लृलिटोः इति एकं सूत्रमस्ति. तत् वदति लृट् स्थाने स्या इति विकरणप्रत्ययः आगच्छति इति. अतः वधुयोग स्यायोग लृट् इति भवति. इदानीं वधु धातु लृट् मध्ये स्या अस्ति. लृट् लस्य सूत्रेण तिप् आगच्छति लृटस्थाने, तो वधु योगस्य योग ति अस्ति, ति वधु मध्ये स्या अस्ति. अनन्तरं यदा आर्थधातुकलकारः प्रक्रिया भवति तत्र इडागमचिन्तनं भवति. अतः तत्र वधु इति धातु इडागमानुकूलः वा इति पश्यामः. वधु धातुः वदौ इति औपदेशिकरूपं, तत्र उपदेशजननादिक इति सूत्रेण अनुनासिक अकारस्य लोपः भूत्वा केवलं वधु इति एव तिष्ठति. उपदेशानुदात्त सूत्रमहं न स्मरामि भगिनि. आत्मनेपदी इडागमस्य चिन्तनस्य प्रत्ययस्य चिन्तनः अहं तत् वदामि. स्यति अत्र आर्थधातुकस्येड् वलादेः इति एकं सूत्रमस्ति. प्रत्ययः वलादि चेत् आर्थधातुकप्रत्ययः चेत् तत्र इडागमः भवति इति. स्य इति वल् प्रत्ययः वर्णे अन्तर्भूतः वर्णः अक्षरः अस्ति, अतः तद् इडानुकूलः अस्ति. तत् वश् प्रत्याहारे नास्ति, अतः नेट् वशीकृति इति सूत्रेण.
नेट् वशीकृति इति कृदन्तरूपाणां प्रसङ्गे एव खलु?
आम् 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 सो नेट् वशीकृति इत्यस्य सूत्रस्य प्रसक्तिः नास्ति, केवलम् आर्धधातुकस्य अनुवलादेः इति सूत्रस्य प्रसक्तिः. तो प्रत्ययः इडनुकूलः अस्ति, तु इकारः अस्ति, वदपि इडनुकूलः अस्ति, अतः ई धातु प्रत्यय इडनुकूलः चेत् ई अस्ति, अतः वधुयोग ई योग स्यति वदिष्यति इति भवति. आद्यन्तौ टकितौ इति सूत्रेण इट् इति प्रत्ययस्य आदौ आगच्छति, वधु ई स्यति वदिष्यति. अनन्तरम् आदेशप्रत्ययोः इति सूत्रेण इन्कोः अपदान्तस्य सकारस्य षकारः मूर्धन्यषकारः भवति, वदिष्यति इति रूपं भवति.
उत्तमं भगिनि, तदेव. अत्र अस्माकं विवक्षानुगुणं लृट् लकारः आनीयते. किमर्थं चेत् लृट् लकारः अस्माकं परिचितः लकारः. यद्यपि षट् लकाराः सन्ति आर्धधातुकाः, भविष्यत्कालरूपं साधयितुं तत्र लृट् लकारप्रयोगं कुर्मः. लृट् शेषे च इति सूत्रेण लृट् लकारः विधीयते. लृट् लकारः परिचितः, अतः तस्य उदाहरणम् अत्र दत्तमस्ति. लृट् शेषे च सूत्रेण लृट् विधीयते. लृट् इत्यत्र टकारः इतिसंज्ञकः, ऋकारः उच्चारणार्थः, ला एव शिष्यते इति स्थितिः तत्र अस्ति. सोपानक्रमः इत्युक्ते कार्याणि कथं भवन्ति. लृट् इत्यत्र लकारः अवशिष्यते, किन्तु लकारस्य स्थाने आदौ तिङ् प्रत्ययः न आयाति इति स्मर्तव्यः अंशः. सार्वधातुकप्रक्रियायां कार्याणि भिन्नानि, अत्र कार्याणि भिन्नानि. आदौ तिङ् प्रत्ययः अत्र न आयाति. लृट् इति लकारं निमित्तीकृत्य स्यतासि लृलुटोः इति सूत्रेण स्या इति लकारनिमित्तिकविकरणप्रत्ययः धातोः परम् आयाति. इत्युक्ते स्यतासि लृलुटोः इति सूत्रेण आदौ स्या प्रत्ययः धातोः परम् आगत्य तिष्ठति इति कृत्वा अत्र वद्योगः स्या इति स्थितिः अस्ति. कर्त्रार्थकसार्वधातुकप्रत्ययः तस्मात् परमेव आयाति. आदौ स्या प्रत्ययः आयाति, तदनन्तरमेव कर्त्रार्थकसार्वधातुक तिङ् प्रत्ययः इत्युक्ते तिप् प्रत्ययः आयाति. इत्युक्ते वद् अपि च ति अनयोर्मध्ये स्या इति अन्यप्रत्ययः लकारनिमित्तिकविकरणप्रत्ययः अस्ति इति कारणतः वद् धातुना तिङ् प्रत्ययः साक्षात् न दृश्यते, अथवा तिङ् प्रत्ययः धातुं द्रष्टुं न शक्नोति, अथवा धातुः तिङ् प्रत्ययं द्रष्टुं न शक्नोति. एतादृशी स्थितिः आर्धधातुकलकारेषु अस्ति. आर्धधातुकप्रक्रियायां स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति लृट् लकारे. लृङ् लकारे अपि स्या इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. लुट् लकारे तास् इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. लुङ् लकारे चिलि इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. पुनः वदामि, आर्धधातुकलकारेषु धातु तिङ्प्रत्ययोः मध्ये लृट् लकारे स्या प्रत्ययः आयाति, लृङ् लकारे अपि स्या प्रत्ययः आयाति, लुट् लकारे धातु तिङ्प्रत्ययोः मध्ये तास् इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. स्यतासि लृलुटोः इति सूत्रेण एव तास् इति प्रत्ययः लुट् लकारे आयाति. लुङ् लकारे चिलि इति लकारनिमित्तिकविकरणप्रत्ययः आयाति. इत्युक्ते आहत्य षट् आर्धधातुकलकाराः सन्ति, तेषु चतुर्षु लकारेषु लकारनिमित्तिकविकरणप्रत्ययः धातु तिङ्प्रत्ययोः मध्ये आगत्य उपविशति, अतः धातुः तिङ्प्रत्ययं द्रष्टुं न शक्नोति. इतोपि लकारद्वयमस्ति, आशीर्लिङ्लकारः लिट् लकारः. तत्र किं भवति? तत्र लकारनिमित्तिकविकरणप्रत्ययः न आयाति, गणनिमित्तिकविकरणप्रत्ययः अपि न आयाति. तत्र किं भवति? तत्र विशिष्टसूत्रद्वयेन पाणिनिना साक्षात् उक्तमस्ति यत् एतौ द्वौ लकारौ आर्धधातुकौ इति साक्षात् पाणिनिः एव उक्तवान्. लिट्च इति एकं सूत्रमस्ति, लिङ्गाशीषि इति अन्यत् सूत्रमस्ति. लिट्च इति सूत्रेण लिट् लकारे तिङ्प्रत्ययाः आर्धधातुकाः भवन्ति. आशीर्लिङ्लकारे अपि तिङ्प्रत्ययाः आर्धधातुकाः भवन्ति इति साक्षात् पाणिनिना उक्तमस्ति. लिट् च लिङ्गाशीषि इति सूत्रद्वयेन तस्मिन् लकारद्वये लिट् लकारे आशीर्लिङ्लकारे तिङ्प्रत्ययाः आर्धधातुकाः भवन्ति, किन्तु अन्येषु चतुर्षु आर्धधातुकलकारेषु धातु तिङ्प्रत्ययोः मध्ये लकारनिमित्तिकविकरणप्रत्ययः आयाति. अपि च अत्र भगिनी उक्तवती खलु, आर्धधातुकलकारेषु इडागमचिन्तनमपि भवति. अत्र धातुः इडनुकूलः, स्या प्रत्ययः अपि इडनुकूलः. वद् धातुः एकाच उपदेशे अनुदात्तात् इति सूत्रेण अस्मिन् धातौ अनुबन्धलोपानन्तरम् एकः एव अचुवर्णः शिष्यते, सः अचुवर्णः अनुदात्तः नास्ति इति कारणतः सेट् भवति. अनुदात्तः अस्ति चेत् अनिट् भवति. एकाच उपदेशे अनुदात्तात् सूत्रेण धातोः अनिटत्वं सूच्यते, किन्तु अत्र धातुः एकाच् एव अनुबन्धलोपानन्तरं, किन्तु अनुदात्तः नास्ति इति कारणतः सेट् भवति. अवशिष्टस्वरः उदात्तः अथवा स्वरितः अस्ति चेत् धातुः सेट् भवति खलु. अतः धातुः इडनुकूलः, स्याप्रत्ययः अपि इडनुकूलः, अतः इडागमः भवति इति कृत्वा वदिष्यति. सुन्दरमहोदय अग्रे पठतु.
उपरितने क्रमे प्रथमः प्रथमं स्या प्रत्ययः आयाति, तदा एव ति आयाति. तत्र धातु ति इत्यनयोः मध्ये स्य अस्ति इति कारणेन धातुना ति न दृश्यते. वद् योगे स्यति, मध्ये स्य अस्ति अतः बाधा अस्ति व्यवधानम् अस्ति धातुः तिङ् प्रत्ययं ति द्रष्टुं न शक्नोति धातुः केवलं स्य एव पश्यति धातुना तिङ् प्रत्ययः ति न दृश्यते इति कारणतः कर्तरिषप् इत्यस्य प्रसक्तिः नास्ति यदा हि ति दृश्य यदा सोरि यदा हि ति दृश्यते तदा हि कर्तरिषप् अतः मध्ये विकरणप्रत्ययः न आयाति विकरणप्रत्ययः न विहितः इति कारणेन गणीयः विचारः न अपेक्षितः धातुः यस्मिन् कस्मिन् अपि गणे यस्मिन् कस्मिन् अपि गणे भवतु कार्यं समानमेव धातुः यस्मिन् कस्मिन् अपि गणे भवतु कार्यं समानमेव अतः अर्धधातुकलकारेषु गणस्य ज्ञानं न अपेक्षितम् किन्तु अर्धधातुकलकारेषु अन्यत् कार्यम् अस्ति पश्यन्तु रूपं कथमस्ति वदिष्यति इति अत्र मध्ये इकारः आगतः अस्ति वदिष्यति यद्यपि अर्धधातुकलकारेषु गणीयः विचारः न अपेक्षितः किन्तु इडागमस्य विचारः अपेक्षितः एव सः च विषयः अग्रे आयास्यति अस्तु भगिनि उपरितने क्रमे प्रथमं स्य प्रत्ययः आयाति तदा एव ति आयाति तस्मात् तत्र धातुः ति अनयोः मध्ये स्य अस्ति इति कारणेन धातुना ति प्रत्ययः न दृश्यते वद् योगे स्यति तत्र मध्ये स्य आयाति इत्यतः बाधा अस्ति अतः बाधा अस्ति व्यवधानम् अस्ति भित्तिः इव मध्ये तस्य तयोर्मध्ये एका भित्तिः इव व्यवधानं तिष्ठति धातुः तिङ् प्रत्ययं ति द्रष्टुम् एव न शक्नोति तदा धातुः केवलं स्य एव पश्यति स्य प्रत्ययः भित्तिः इव तिष्ठति मध्ये तयोर्मध्ये धातुना तिङ्प्रत्ययः ति न दृश्यते इति कारणतः कर्तरिषप् इत्यस्य प्रसक्तिः नास्ति यदा हि ति दृश्यते तदा हि कर्तरिषप् अथ मध्ये विकरणप्रत्ययः न आयाति स्य इति मध्ये व्यवधानम् अस्ति इति कारणतः विकरणप्रत्ययः न आयाति विकरणप्रत्ययः न विहितः इति कारणेन गणीयविचारः अपि न अपेक्षितः तत्र आर्धधातुक लकाराणां कृते कोऽपि गणः न विहितः इति ज्ञातव्यः अंशः धातुः यस्मिन् कस्मिन्नपि गणे भवतु कार्यं समानमेव कोऽपि धातोः गणं निमित्तीकृत्य कोऽपि विशिष्टं कार्यं नास्ति सर्वाणि कार्याणि अपि समानमेव अतः अर्धधातुकलकारेषु गणस्य ज्ञानं न अपेक्षितम् अर्धधातुकलकारेषु कोऽपि गणाः न विहिताः इति कारणेन तस्य ज्ञानमेव न आवश्यकम् किन्तु अर्धधातुकलकारेषु अन्यत् कोऽपि कार्यम् अस्ति पश्यन्तु रूपं कथम् अस्ति इति वदिष्यति इति रूपं सिध्यति अत्र मध्ये इकारः इडागम कारणेन मध्ये इकारः आगतः तस्मात् वद् योगे ई इकारः इडागमस्य कारणेन इकारः योगे श्यति इति रूपं सिध्यति यद्यपि अर्धधातुकलकारेषु गणीयविचारः न अपेक्षितः परन्तु इडागमस्य इडागमः विहितः इति कारणेन इडागमस्य विचारः अपेक्षितः, सः च विषये अग्रे गत्वा पश्यामः तदेव.
तदेव अत्र क्रमः अस्ति इति स्मर्तव्यः अंशः. उपरितने क्रमे प्रथमं स्याप्रत्ययः आयाति लृट्लकारप्रसङ्गे अथवा आर्धधातुकलकाराणां प्रसङ्गे. आर्धधातुक तिङन्तपदं साधयितुम् इच्छामश्चेत् तदा लकारनिमित्तिकविकरणप्रत्ययः आदौ आयाति, पश्चात् एव तदनन्तरमेव तिङ् प्रत्ययः आयाति. ईदृशक्रमः अस्ति इति कथं जानीमः इत्युक्ते सूत्रेषु उक्तमस्ति, सूत्राणि एव प्रमाणानि. स्यतासील् रु लुटोः इति सूत्रेण किमुच्यते, लृट् लकारं निमित्तीकृत्य लकारनिमित्तिकविकरणप्रत्ययः स्याप्रत्ययः लकारं निमित्तीकृत्य आदौ लृट् लकारप्रसङ्गे धातोः परम् आयाति, तस्मात् परमेव कर्त्रर्थक सार्वधातुक तिङ् प्रत्ययः आयाति इति कृत्वा वद्योगः स्यायोगः ति इत्यत्र आदौ स्यात् आयाति पश्चादेव ति प्रत्ययः आयाति. किन्तु सार्वधातुकप्रक्रियायां किं भवति, आदौ तिङ् प्रत्ययः आयाति लस्य सूत्रेण लकारस्य स्थाने तिबादयः आयान्ति. तादृशी स्थितिः आर्धधातुकलकारेषु नास्ति. एतादृशं विभजनं नास्ति चेत् अस्माकं कृते काठिन्यम्, अनया पद्धत्या एव अस्माकं कार्यं सुलभं भवति. अनेन विभजनेन स्पष्टता भवति सार्वधातुकलकारः आर्धधातुकलकारः अथवा सार्वधातुकप्रक्रिया आर्धधातुकप्रक्रिया. एतादृशं विभजनम् अस्ति चेदेव अस्माकं मनसि स्पष्टता भवति. तदर्थमेव प्रक्रियासौलभ्यार्थम् एवं कृतम् अस्ति. पश्यन्तु आयास्यति इति रूपमस्ति खलु, आ उपसर्गपूर्वकः या धातुतः निर्मितं लृट् लकाररूपम् आयास्यति अस्ति. धातुः या धातुः अस्ति, या धातोः रूपं यास्यति. पा अस्ति चेत् पास्यति, मा अस्ति चेत् मास्यति, दा अस्ति चेत् दास्यति, धा अस्ति चेत् धास्यति. इत्युक्ते तत्र किमस्ति लृट्लकाररूपेषु, धातोः परम् आदौ स्याप्रत्ययः आयाति. तत्र गणविकरणचिन्तनम् अनावश्यकं. पा धा एते धातवः आकारान्तधातवः अपि च अनिट् धातवः, अतः इडागमचिन्तनं नास्ति. तदर्थं यास्यति दास्यति पास्यति ईदृशानि रूपाणि भवन्ति. पा धातुः आकारान्तधातुः एव, किन्तु पा धातोः रूपं लटीरूपं पिबति अस्ति. किमर्थं पिबति अस्ति, पा धातुः भुवादिगणे अस्ति. भुवादिगणे अस्ति इति कारणतः आदौ धात्वादेशः भवति, पश्चात् शप् विकरणप्रत्ययः आयाति इति कृत्वा तस्य रूपं पिबति अस्ति. पा धातोः लटीरूपं पिबति, किन्तु लृटिरूपं पास्यति. सार्वधातुकलकारेषु गणविकरणचिन्तनम् आवश्यकम्. सः धातुः कस्मिन् गणे अस्ति इति स्पष्टतया ज्ञातव्यम्. तदनुसृत्य एव तत्र गणविकरणप्रत्ययः आगन्तुं शक्नोति, अपि च रूपमपि भिद्यते. किन्तु आर्धधातुकलकारेषु गणविकरणचिन्तनम् अनावश्यकम्. तत्र केवलं धातुः आकारान्तः वा इकारान्तः वा ऊकारान्तः वा एतादृशविभजनं भवति. तत्र आर्धधातुकलकारेषु इडागमचिन्तनम् अवश्यं करणीयं कृदन्तरूपाणां प्रसङ्गे अपि च तिङन्तरूपाणां प्रसङ्गे अपि. प्रत्ययः कृत् प्रत्ययः अस्ति चेत् सः प्रत्ययः वशादिः मा भवेत्. भगिनी उक्तवती नेड् वशीकृति इति सूत्रेण कृदन्तरूपसाधनवेलायां न केवलम् आर्धधातुकस्येड् वलादेः नेड् वशीकृति इति सूत्रस्य आवश्यकता अपि तत्र अस्ति. प्रत्ययः कृत् प्रत्ययः अस्ति चेत् प्रत्ययः इडनुकूलः, धातुः अपि इडनुकूलः अस्ति चेदेव तत्र इडागमः भवति इति अस्माभिः पठितमेव. इडागमचिन्तनं अवश्यम् आर्धधातुकप्रक्रियायां करणीयम्. अग्रिमे परिच्छेदे इतोपि किञ्चित् लिखितम् अस्ति, पठित्वा समापयाम. नरसिंह हेग्डे महोदय, भवान् पठतु.
सार्वधातुकलकारः अस्ति चेत् धातुविकरणयोः अङ्गं भवति, तच्च अङ्गम् अनदन्तम् अदन्तम् अनदन्तं वा इत्युक्तम्. अस्मिन् पाठे सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ् परिशीलिष्यते परिशीलिष्यन्ते यत्र अङ्गम् अदन्तमस्ति. अङ्गम् अदन्तं केषु गणेषु? भ्वादिगणे, द्विवादिगणे, तुदादिगणे, चुरादिगणे च. एत येषां चतुर्णां लकार गणानाम् अङ्गम् अदन्तम् अथ येषां सिद्धतिं प्रत्ययः समानाः. अस्य पाठस्य तृतीयाध्याये, चतुर्थ अध्याये च एते सिद्धतिं प्रत्ययाः निष्पन्नाः भवन्ति. अदन्तम् अङ्गं योगसिद्धतिङ्प्रत्ययः, तिङन्तपदं क्रियापदम् इति. यथा वद्योगशप् वद्योग अ वद् वद इति अदन्तम् अङ्गं, पित् पकारस्य संज्ञालोपश्च ती इति सिद्धतिङ्प्रत्ययः, वद्योगति वदति इति तिङन्तरूप तिङन्तपदं. तथैव वद्योगतः वदतः, वद्योग वदयोग अन्ति वदन्ति इति. आहत्य वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे च 1700 धातवः सन्ति. एवं च अस्मिन् पाठे कण्ठस्थीकरणेन विना 1700 धातूनां लट् लोट् लङ् विधिलिङ् इत्येषां तिङन्तरूपाणि ज्ञास्यन्ते. अत्र अस्ति मातुः पाठस्य वैलक्षणम्. अत्र सार्वधातुकलकारः अस्ति चेत् धातुविकरणयोः अङ्गं भवति धातुयोगविकरणप्रत्ययः. यदा भ्वादिगणः अस्ति चेत् तत्र विकरणप्रत्ययः अस्ति, धातुयोगः इति अङ्गं भवति तिङ्प्रत्यये कृते. तच्च अङ्गम् अदन्तम् अनदन्तं वा इत्युक्तं. यदि धातु तिङ्प्रत्यययोजनेन अन्ते क नास्ति इति द्रष्टव्यं. यदि अ अस्ति चेत् तद् अदन्तम् अङ्गम् इति उच्यते, यदि नास्ति चेत् अनदन्तम् इति उच्यते. अस्मिन् पाठे सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ् परिशीलिष्यन्ते यत्र अङ्गम् अदन्तमस्ति. अत्र लट् लोट् लङ् विधिलिङ् लकारेषु यत्र अङ्गम् अदन्तं सार्वधातुकलकारः अस्ति, तत्र अङ्गम् अदन्तम् अस्ति चेत् केषु गणेषु अङ्गम् अदन्तं भवति इति चेत् भ्वादिगणे, द्विवादिगणे, तुदादिगणे, चुरादिगणे इति. भ्वादिगणे शप् अस्ति विकरणप्रत्ययः, अतः अवशिष्यते. तत्र धातु विकरणप्रत्ययः अयो भवति. द्विवादिगणे द्विवादिभ्यः शन् इति अस्ति, तत्र नागच्छति, शकारः अपि गच्छति, य इति अवशिष्यते. तत्रापि दृश्यन्ते यकार तत् अस्ति, तत्र अन्ते अकारः अस्ति. तुदादिगणे तुदादिभ्यः श इति अस्ति, तत्र शकारः गच्छति, अ इति अवशिष्यते. तत्रापि अदन्तम् अङ्गं भवति. चुरादिगणे वयं जानीमः णिच् प्रथमतया भवति, अनन्तरं सार्वधातुक तिङ्प्रत्ययः अस्ति चेत् अस्ति इति कृत्वा शप् आयाति. शप् इति भ्वादिगणे यथा वयं द्रष्टम् अ इति अन्ते भवति, अतः तत्रापि अदन्तम् अङ्गं भवति. यतः येषां चतुर्णाङ्गणम् अङ्गम् अदन्तम् अतः येषां सिद्धतिङ्प्रत्ययः समानः. अतः अत्र अस्ति मातुः लक्षणं वैलक्षणम् अस्ति. यत्र यत्र अदन्तम् अङ्गमस्ति तत्र तिङ्प्रत्ययः समानाः भवन्ति. तत्र वयं प्रत्येकं नीत्वा न दृष्टुं तत्र आवश्यकता नास्ति. अत्र एकं धातु स्वीकृत्य वयं यदि परिशीलनं कुर्मः, तदम् अर्थं ग्रहणीयं कुर्मः, तत् सर्वे अन्यधातवः समानः भवति. अत एव तत्र मातु पाठस्य वैलक्षणमस्ति. अस्य पाठस्य तृतीयपादे, चतुर्थपादे इति सिंहबुद्धया निष्पन्नाः भवन्ति. अत्र अग्रे गत्वा चतुर्थाध्याये चतुर्थाध्याये तृतीयाध्याये सिद्धतिङ्प्रत्यय कथं निष्पन्नं इति तत्र दत्तमस्ति. अदन्तङ्गं सिद्धतिङ्प्रत्ययः सिद्धतिङ्प्रत्ययः तिङन्तपदम् इति उच्यते. अदन्तम् अङ्गमस्ति, अनन्तरं सिद्धतिङ्प्रत्ययः अस्ति. सिद्धतिङ्प्रत्ययः इत्युक्ते तत्र यदा वयं जानीमः तिङ्प्रत्ययः तत्र सिद्ध रूपं कथं भवति इति, तदेव प्रत्येकम् अग्रे अस्ति. यदा एकवचने किं भवति, द्विवचने किं भवति, बहुवचने किं भवति इति. तत्र अनन्तरं अङ्गं योगं सिद्धतिङ्प्रत्ययः योजयामः चेत् तत्र क्रियापदरूपम् इति भवति. यदा वद्योग शप् वद्योग अस्ति, वद इति अङ्गं भवति. अनन्तरं तिप् पकारस्य संज्ञा ति इति अवशिष्यते. तत्र प्रथमपुरुषे एकवचनरूपम्, अतः वद योग अङ्गं वद योगति वदन्ति वदति. यदा बहुवचनं पश्यामः, द्विवचनं पश्यामः, तत्र पूर्वं दृष्टवन्तः तत्र तः इति भवति. यदा वद योगतात् वदतः इति भवति. तत्र बहुवचने वद योग अन्ति इति अस्ति, सिद्धतिं प्रत्यय अन्ति इति अस्ति, अङ्गं वद अस्ति, अतः वदन्ति इति भवति। कोऽपि धातुः स्वीकुर्मः चेत् तदेव भवति अत्र समानरीत्या, अतः प्रत्येकप्रत्यधातु नीत्वा पठनं न आवश्यकम् इति। तदेव अस्ति मातुपाठस्य वैलक्षणम् इति उक्तमस्ति अत्र। एवं च दीक्षितपुष्पाय पाणिनीयधातुपाठः अत्यन्तशक्तिशाली अस्ति। कश्चन बोधो अस्ति चेत् बहूनि क्रियापदरूपाणि ज्ञातुं शक्नुमः। अग्रे अङ्गं कथं निष्पद्यते, तिङ्प्रत्ययः कथं साधनीयः, अपि च अङ्क्तिङ्प्रत्ययो मेलनं कथं कुर्यते इति कार्यते इत्येषु विषयं चर्चयिष्यामः। अग्रे गत्वा सिद्धतिङ्प्रत्ययः कथं निष्पन्नः भवति तस्य अपि अग्रे भवति तस्य विचारे। सिद्धतिङ्प्रत्ययः अङ्गं कथं निष्पद्यते, सिद्धतिङ्प्रत्ययः कथं निष्पद्यते, अपि च तस्य मेलनं कथं कथं भवति इति अग्रे दत्तमस्ति इति दत्तमस्ति अत्र।
उत्तमं महोदय,
धन्यवादः।
सार्वधातुकलकारः अस्ति चेत् तत्र तिङ्प्रत्ययः कदा विधीयते, सोपानक्रमे तिङ्प्रत्ययः कदा आयाति इति एव अत्र प्रश्नः। सोपानक्रमः कीदृशः? सार्वधातुकलकारः अस्ति चेत् आदौ एव तिङ्प्रत्ययः आयाति लस्य इति सूत्रेण, किन्तु आर्धधातुकलकारेषु प्रथमतया लकारं निमित्तीकृत्य, लृट् लकारः अस्ति चेत् लकारं निमित्तीकृत्य लकारनिमित्तिकविकरणप्रत्ययः प्रथमम् आयाति, तस्मात् परमेव तिङ्प्रत्ययः आयाति। इत्युक्ते स्याप्रत्ययस्य विधानं लृट् लकारे तिङ्प्रत्ययस्य आगमनात् पूर्वमेव भवति, तिङ्प्रत्ययस्य आनयनात् पूर्वमेव अथवा आगमनात् पूर्वमेव तत्र स्याप्रत्ययस्य विधानं भवति, पश्चादेव लृट् लकारे तिङ्प्रत्ययः आयाति। सार्वधातुकलकारेषु आदौ शपायाति, पश्चात् शपं प्रबाध्य अन्यविकरणाः आयान्ति, गणनिमित्तिकविकरणप्रत्ययाः आयान्ति। इत्युक्ते गणम् आश्रित्य यः विकरणप्रत्ययः विधीयते सः प्रत्ययः गणविकरणप्रत्ययः, लकारं निमित्तीकृत्य यः विकरणप्रत्ययः आयाति अथवा लकारम् आश्रित्य यः विकरणप्रत्ययः आयाति सः विकरणप्रत्ययः लकारनिमित्तिकविकरणप्रत्ययः। इतोपि किमस्ति, लटि लोटि लङि विधिलिङि, इत्युक्ते एतेषु चतुर्षु लकारेषु एतादृशं कार्यमेव भवति। इत्युक्ते लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु आदौ लकारस्य स्थाने लस्य सूत्रेण तिबादयः आयान्ति एतेषु चतुर्षु लकारेषु। अन्येषु षट् लकारेषु लकारनिमित्तिकविकरणप्रत्ययः आदौ आयाति, पश्चात् तिङ्प्रत्ययः आयाति इति सारांशः। अत्र एका वार्ता अस्ति, अत्र मूलतिङ्प्रत्ययाः सन्ति तिप् तस् जि सिप् तस् थमिप् वस् मस् त आतां झथा साथां त्वम् इड्वहिमहि, एते अष्टादश तिङ्प्रत्ययाः मूलप्रत्ययाः सन्ति, किन्तु लटिरूपं भिन्नं, लोटिरूपं भिन्नं, लङिरूपं भिन्नं, विधिलिङ्गरूपं भिन्नं, किमर्थं तथा इति प्रश्नः उदेति। एते चत्वारः लकाराः सार्वधातुकाः एव, उदाहरणार्थं पश्यामश्चेत् पठति पठतु अपठत् पठेत्, एवं रूपाणि सन्ति खलु, लटिरूपं पठति, लोटिरूपं पठतु, लङ्रूपम् अपठत्, विधिलिङ्गरूपं पठेत्, एवं रूपाणि भवन्ति खलु। किमर्थं तादृशभेदः अस्ति इति प्रश्ने सति, आदौ मूलतिङ्प्रत्ययाः आयान्ति पश्चात् प्रत्ययादेशाः भवन्ति, इत्युक्ते मूलतिङ्प्रत्ययस्य परिवर्तनं भूत्वा प्रत्ययादेशाः भूत्वा सिद्धतिङ्प्रत्ययाः निर्मीयन्ते। इत्युक्ते सिद्धतिङ्प्रत्ययानां निर्माणं कथं भवति इति अग्रे वक्ष्यते। आदौ तु एतेषु चतुर्षु लकारेषु लस्य स्थाने मूलतिङ्प्रत्ययाः आयान्ति, मूलतिङ्प्रत्ययानां परिवर्तनं भवति, तत्र प्रत्ययादेशाः भवन्ति, प्रत्ययादेशाः भूत्वा सिद्धतिङ्प्रत्ययानां निर्माणं भवति। अपि च धातुविकरणयोः मेलनेन यद् संयुक्तं रूपं सिद्ध्यति तद्रूपं तिङ्प्रत्ययस्य कृते अङ्गं भवति। अङ्गम् अदन्तं चतुर्षु गणेषु अस्ति, षट्सु गणेषु अङ्गम् अनदन्तम् अस्ति। अत्र वैलक्षण्यम् इति पदमस्ति खलु, तद्धितान्तं पदमस्ति, विलक्षणता, विलक्षणत्वं, विलक्षणस्य भावः वैलक्षण्यम्। अपि च अत्र कार्यते इति रूपमस्ति, अग्रिमे परिच्छेदे कार्यते इति कीदृशं पदं नरेश महोदय वदतु
आत्मनेपदी अस्ति
निच् निच् योजनेन कार्यते इति निच् कर्मणि निच् कर्मणि निच्
निच् युक्तं कर्मणि लटि रूपं खलु
आम्
करोति इत्यस्य कर्मणि रूपं क्रियते कारयति इति णिजन्तरूपम् अस्ति तस्य कर्मणि लट् रूपं कार्यते क्रियते इति भिन्नं पदं क्रियते इति अणिजन्तकर्मणि लट् कार्यते इति णिजन्तयुक्तकर्मणि लट् रूपम् अस्ति सप्तदशाधिक एकसहस्रं धातवः चतुर्षु गणेषु इत्युक्ते येषु गणेषु अदन्तम् अङ्गमस्ति तेषु गणेषु सप्तदशाधिक एकसहस्रं धातवः सन्ति कण्ठस्थीकरणेन विना एतेषां धातूनां लट् लोट् लङ् विधिलिङ्ग् रूपाणि साधयितुं शक्नुमः एतादृशक्रमम् अवलोकयामश्चेत् एतादृशं विभजनम् आवश्यकम् अदन्ताङ्गेषु सिद्धतिङ् प्रत्ययाः समानाः अनदन्ताङ्गेषु सिद्धतिङ् प्रत्ययाः समानाः पूर्वं भगिनी उक्तवती प्रथमपुरुष द्विवचनप्रत्ययः सिद्धतिङ् प्रत्ययः तः सिद्धतिङ् प्रत्ययाः लट्लकारे कथं भवन्ति ती तः अन्ति सी थः थ मी वह मह इमानि रूपाणि कथम् आयान्ति तत्र मूलप्रत्ययाः तु तिप् तस्झि एवं सन्ति किन्तु सिद्धप्रत्ययाः ती तः अन्ति सी थः थ मी वह मह इमानि रूपाणि कथं साधनीयानि इति प्रश्ने सति अग्रे तेषां प्रसङ्गे पठिष्यामः तीतः अन्ति एते एव सिद्धतिङ् प्रत्ययाः इत्युक्ते मूलतिङ् प्रत्ययेभ्यः अन्यानि कार्याणि भूत्वा सिद्धतिङ् प्रत्ययानां निर्माणं भवति अन्तिमविषयः अस्ति यदि भवन्तः द्रष्टुमिच्छन्ति चेत् मातृभिः कृतं पुस्तकमस्ति अष्टाध्यायीसूत्रपाठः इति पुस्तकमस्ति तस्मिन् पुस्तके चतुष्पञ्चाशत्तमे पुटे पेज् 54 मध्ये सूत्राणि सन्ति तत्र त्रयस्त्रिंशत् सूत्रमस्ति श्यतासील् रूलुटोः पुनः वदामि पुटसङ्ख्या चतुष्पञ्चाशत्तमे पुटे 54 मध्ये सूत्राणि सन्ति तत्र त्रयस्त्रिंशत् सूत्रमस्ति श्यतासील् रूलुटोः श्यतासील् रूलुटोः इति सूत्रात् आरभ्य षडशीतितमसूत्रपर्यन्तम् अग्रिमेषु पुटेषु षडशीतितमसूत्रपर्यन्तं तत्र विकरणप्रत्ययाः सन्ति सर्वे विकरणप्रत्ययाः एतेषु पुटेषु सन्ति स्यतासील् रूलुटोः इति सूत्रं त्रयस्त्रिंशत् सूत्रं तस्मात् सूत्रात् आरभ्य षट्षष्टितमसूत्रपर्यन्तं 33-66 पर्यन्तं तत्र लकारनिमित्तिकविकरणप्रत्ययाः आदौ दीयन्ते सूत्रं 33-66 पर्यन्तं लकारनिमित्तिकविकरणप्रत्ययाः आयान्ति पश्चात् तत्र सप्तषष्टितमं सूत्रमस्ति सार्वधातुके यक् इति सूत्रमस्ति सार्वधातुके यक् इति सूत्रं कर्मणि प्रयोगे रूपसिद्धौ तस्य प्रयोगः भवति तस्मात् परम् अष्टषष्टितमं सूत्रमस्ति कर्तरिषप् इति सूत्रात् आरभ्य गणविकरणप्रत्ययाः दीयन्ते तस्मिन्नेव पुटे एकवारं पश्यन्तु चतुष्पञ्चाशत्तमं पुटं पश्यन्तु तत्र सूत्राणि सन्ति आदौ लकारनिमित्तिकविकरणप्रत्ययाः दीयन्ते पश्चात् गणविकरणप्रत्ययाः दीयन्ते गणविकरणप्रत्ययम् आनेतुं सूत्रम् आवश्यकं खलु अतः कर्तरि शप् इति सूत्रात् आरभ्य क्रियादिभ्यः श्ना पर्यन्तं तस्मिन्नेव पुटे सूत्राणि दत्तानि सार्वधातुकलकाराः आर्धधातुकलकाराः च अधिकचिन्तनम् इति अन्यत् करपत्रमस्ति तस्मिन् करपत्रे इतोपि लिखितम् अस्ति आगामिनि सप्ताहे वयं सर्वे मिलित्वा इतोपि अवगन्तुं प्रयत्नं करिष्यामः सर्वेषां धन्यवादाः